इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय वित्त मन्त्री निर्मला सीतारामन वर्या अवदत् यत् जीएसटी इत्यस्य द्वितीय संस्करणस्य परिष्कारेण देशस्य अर्थव्यवस्था महतीं वृद्धिम् अवाप्नोत्, येन उत्सव समये इलेक्ट्रॉनिक्स, ऑटोमोबाइल्स, उपभोक्तृवस्तूनि चेत्यादिषु प्रमुख क्षेत्रेषु सर्वोत्तम विक्रयणं जातमस्ति। सा ह्यः नवदिल्ल्यां सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन, वाणिज्योद्योग मन्त्रिणा पीयूष गोयलेन च सह जीएसटी बचत उत्सव इत्यस्मिन् विषये संयुक्त वार्ताहर सम्मेलनं सम्बोधयन्ति आसीत्। वित्तमन्त्रिणा प्रोक्तं यत् जीएसटी इत्यस्य देयमितौ अपचिति लाभः सामान्यजनेभ्यः प्रदीयते इति। अस्मिन्नवसरे वार्तालापं कुर्वन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् अस्मिन् वर्षे नवरात्रि उत्सवे सर्वोत्तम विक्रयणं दृष्टमस्ति। सः अवदत् यत् अस्मिन् वर्षे नवरात्र्युत्सवावधौ इलेक्ट्रॉनिक्स इत्यस्य विक्रयणे पूर्वतनस्य नवरात्र्युत्सवस्य विक्रयणेन तुल्यं 25% वृद्धिः अभवत् इति। सः अवदत् यत् जीएसटी परिष्कारैः खाद्यपदार्थानां मूल्येषु अपि अपचितिः जाता। जीएसटी बचत उत्सव इत्यस्मिन् विषये वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् नवरात्रि समये वाहनानां विक्रयणम् अभूतपूर्वरूपेण वर्धितमस्ति। सः अवदत् यत् एतादृशस्य अस्थिर वैश्विक परिदृश्यस्य समये देशस्य वृद्धि एतावता प्रबलगत्या प्रचलन्ती अस्ति, येन अन्ताराष्ट्रिय मुद्राकोषेण अपि देशस्य वृद्धेः पूर्वानुमानं संशोध्य 6.6% यावत् वर्धितमस्ति। भारतीय अन्तरिक्ष अनुसन्धान संघटनेन ऐतिहासिकं वैज्ञानिकं परिणामम् उद्घोषितम् यत्तस्य चन्द्रयान द्वितीयोपग्रहः स्वस्य वैज्ञानिक उपकरणस्य उपयोगेन सूर्यात् चन्द्रस्य उपरि कोरोनल मास इजेक्शन इत्यस्य प्रभावस्य प्रथम वारम् अवलोकनं कृतवान्। बेंगलुरु नगरे स्थितेन अन्तरिक्ष संघटनस्य मुख्यालयेन उक्तं यत् एतत् निरीक्षणं चन्द्रस्य बाह्यमण्डलस्य, चन्द्रस्य वायुमण्डलस्य, चन्द्रमसि अन्तरिक्षे ऋतोः प्रभावस्य च अध्ययने साहाय्यं करिष्यति इति। एते निष्कर्षाः न केवलं चन्द्र अन्तरिक्षयोः ऋतोः वैज्ञानिक अवबोधनं गहनं कुर्वन्ति, अपि तु भविष्ये चन्द्राभियानानां कृते चन्द्रस्य उपरि मानववासस्थलानां विन्यासस्य कृते च प्रभावान् जनयन्ति इति इसरो इत्यनेन उक्तम्। भगवतः श्रीरामचन्द्रस्य दिव्यगृहप्रत्यावर्तनस्योपलक्ष्ये उत्तरप्रदेशे अद्य सायंकाले पवित्रनगर्याम् अयोध्यायां वार्षिकदीपोत्सवस्य नवमसंस्करणस्य कृते मञ्चः सज्जः अस्ति। नूतनं कीर्तिमतं रचनाय सम्पूर्णे नगरे 26,00,000+ दीपाः प्रज्वालिताः भविष्यन्ति। प्रथमवारं दिल्ल्यामपि भव्यः दीपोत्सवः आचरितः। ह्यः कर्तव्यपथि उत्सवस्य उद्घाटनं कुर्वन्ति दिल्ल्याः मुख्यमन्त्री रेखागुप्ता अवदत् यत् दिल्लीनगरे नूतन कथा लिखिता अस्ति। भारत ऋतु विभागेन अद्य केरल माहे लक्षद्वीपेषु पृथक् पृथक् स्थानेषु प्रचण्डतः अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। विभागेन कर्णाटकस्य, तमिलनाडुराज्यस्य, पुदुच्चेरीराज्यस्य, करैकलराज्यस्य, अण्डमान निकोबार द्वीपसमूहानां च केषुचित् भागेषु अपि प्रचण्डवृष्टेः सम्भावना प्रकटिता अस्ति। आईसीसी महिलानाम् एकदिवसीय क्रिकेट विश्वचषक क्रीडायाम् अद्य मध्यप्रदेशस्य इन्दौरनगरस्य होल्कर क्रिकेट क्रीडाङ्गणे भारतम् इंग्लैण्ड दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः अपराह्णे 3 भविष्यति। तत्रैव पुरुष क्रिकेट क्रीडायाम् अद्य पर्थ नगरे तिसृणां क्रिकेट श्रृंखलायाः आरम्भः अद्य भारत ऑस्ट्रेलिया दलयोः मध्ये भविष्यति। क्रीडायाः आरम्भः प्रातः 9 भविष्यति। इति वार्ताः।